इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झा। अथ वार्ताः। द्वाविंशतितमे भारत रूस वार्षिक शिखर सम्मेलने रक्षा व्यापार निवेशोर्जा शिक्षा विज्ञानम् प्राविधिकी संस्कृतिः च केन्द्रीभूताः चर्चाबिन्दवः भविष्यन्ति। नवदिल्ल्यां ह्यः वार्ताहर सम्मेलने विदेश सचिवः विनय मोहन क्वात्रा एवम् उदीरितवान्। अस्मिन् मासे अष्टम दिनांकात् दशम दिनांक पर्यन्तं रूस ऑस्ट्रिया देशयोः प्रधानमन्त्रिणः आधिकारिक यात्रायाः विषये श्रीक्वात्रा अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदी रूसस्य राष्ट्रपतिः व्लादिमीर पुतिनः च द्वयोः देशयोः बहुपक्षीय सम्बन्धानां समीक्षां करिष्यतः। सः अवदत् यत्तौ पारस्परिक हितस्य समकालिक क्षेत्रीय वैश्विक विषयेष् च विचारणां करिष्यतः। चतुर्विंशत्यधिक द्विसहस्रतम वर्षस्य नीट पीजी इति प्रवेश परीक्षा आगामि मासस्य एकादशे दिनांके कालद्विधा विभज्य भविष्यति। राष्ट्रियायुर्विज्ञान परीक्षा मण्डलेन ह्यः परीक्षायाः संशोधिता समय सारणी प्रसारिता। गतमासे परीक्षायाः निर्धारित दिनात् एकदिन पूर्वमेव परीक्षा स्थगिता जातासीत्। कतिपय प्रतियोग परीक्षाणां सत्यनिष्ठायाः आरोपानन्तरम् एषः निर्णयः कृतः। भारतेन निवर्तमान सत्रे रक्षोत्पादन मूल्येष् अभूतपूर्व वृद्धिः समुट्टंकितास्ति। एतस्मिन् वर्षे एषा वृद्धिः प्रायशः नवशतोत्तराष्टसहस्राधिक षड्विंशति लक्षाधिकैक लक्षकोटि रूप्यकाणाम् आसीत्, या हि गतवर्षस्य तुलनायां दशमलवाष्टाधिक षोडश प्रतिशतम् अधिकास्ति। रक्षामन्त्रिणा राजनाथसिंहेन सामाजिक प्रसारतन्त्रे प्रसारिते एकस्मिन् सन्देशे उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे मेक इन इण्डिया इति कार्यक्रमः निरन्तरं नवकीर्तिमत् स्थापयन् अस्ति। श्रीमता सिंहेन रक्षा सार्वजनीन क्षेत्रस्य उपक्रमाः, रक्षावस्तु विनिर्माणे संलग्नानि अन्योद्यमान्यानपि प्रशंसितानि। अस्य विषयस्य प्रशंसा प्रधानमन्त्री नरेन्द्रमोदी अपि अकरोत्। केन्द्रीय मन्त्री अश्विनी वैष्णवः ह्यः उक्तवान् यत् भारतीय रेल विभागः वर्षेऽस्मिन् सार्ध द्विसहस्र परिमितानां रेल यान प्रभागानां विनिर्माणं विधास्यति। तदनन्तरं च इतोऽपि दशसहस्र प्रभागानां विनिर्माणं भविष्यति। श्रीवैष्णवः भारतीय रेल विभागस्य गतिशक्ति विश्वविद्यालयेन सह प्रतिष्ठितस्य एयरबस इति वाणिज्यिक विमान निर्मातृ समवायस्य मध्ये सन्धिपत्रस्य उपरि हस्ताक्षरकाले एवम् उक्तवान्। जम्मूकश्मीरे वार्षिकी अमरनाथ यात्रा सुचारुतया प्रचलति। दर्शनस्य षष्ठे दिवसे श्री अमरनाथ भगवतः पवित्र गुहायां अष्टसप्तत्यधिक नवशतोत्तर चतुर्विंशति सहस्रं तीर्थयात्रिणः दर्शनं कृतवन्तः। एतेन सहैव जून मासस्य ऊनत्रिंशत् दिनांकतः यात्रायाः आरम्भात् गतदिवस पर्यन्तं प्रायः त्रिंशत् सहस्रोत्तरैकलक्षाधिक तीर्थयात्रिणः देशस्य विभिन्न भागेभ्यः पवित्र गुहां प्रति दर्शनार्थं प्राप्तवन्तः। ब्रिटेन देशस्य संसदीय निर्वाचने लेबर पार्टीति दलस्य विजयः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी ब्रिटेन संसदीय निर्वाचने विजेत्रे कीर स्टार्मर इत्यस्मै वर्धापनानि प्रदत्तवान्। सः उक्तवान् यत् सकारात्मकगत्या अग्रे वर्धनाय भारत ब्रिटेनयोर्मध्ये सहयोग पुरस्सरं कार्याचरणाय वयं सन्नद्धाः स्मः। भारतीय महिला क्रिकेट दलं दक्षिणाफ्रीका दलेन ह्यः द्वादश धावनांकैः पराजितम् इति वार्ताः।